ये क्यों नहीं बना? एक दो तीन आचार्य पूज्यपाद स्वामी द्वारा रचित समाधि तंत्र श्लोक नंबर 1 से 20। येनात्मा बुद्धितात्मैव परत्वेनैव चापरम् अक्षयानन्तबोधाय तस्मै सिद्धात्मने नमः। जयन्ती यस्या वदतोऽपि भारती विभूतयस्तीर्थक्रतोऽप्यनिहितो शिवाय धात्रे सुगताय विष्णवे जिनाय तस्मै सकलात्मने नमः। श्रुतेन लिंगेन यथात्मशक्ति समाहितान्तःकरणेन सम्यक् समीक्ष्य कैवल्यसुखप्रहानां विवेक्तमात्मान्मथाभिधास्ये वैरन्तः परश्चेति त्रिधात्मा सर्वदेहिषु उपेयात् तत्र परमं मध्योपायात् बहिस्त्यजेत्। वहिरात्मा शरीरादौ जातात्मभ्रांति रांतरः चित्त दोषात्म विभ्रांतिः परमात्माति निर्मलः निर्मलः केवलः शुद्धो विविक्तः प्रभुरव्ययः परमेष्टि परात्मेति परमात्मेश्वरो जिनः। बहिरात्मेन्द्रियद्वारै रात्मज्ञान पराङ्मुखः स्फुरितः स्वात्मनो देह मात्मत्वे नाध्य वस्यति। नरदेहस्थ मात्मान मविद्वान् मन्यते नरम् त्रियंचम् त्रियंगंगस्थम् सुरांगस्थम् सुरम् तथा नारकम् नारकांगस्थम् न स्वयं तत्तु तस्तथा। अनन्तानन्तधीशक्ति स्वसंविद्यो चलस्थिति स्वदेह सदृशं दृष्ट्वा परदेह मचेतनं परात्माधिष्ठितं मूढ परत्वे नाध्य वश्यति। स्वपराध्य वशायेन देहिस्व विदितात्मनां वर्तते बिभ्रमा पुंसां पुत्रभार्यादि गोचरः। अविद्यासंगितस्तस्मात् संस्कारो जायते दृढः येन लोकोऽङ्गमेव स्वं पुनरप्यभिमन्यते। देहे स्वबुद्धिरात्मानं युनक्तेन निश्चयात् स्वात्मन्ये वात्मधीस्तस्मात् वियोजयति देहिनं। देहे स्वात्मधिया जातः पुत्रभार्यादिकल्पना सम्पत्ति मात्मनस्ताभिर्मन्यते हाहतं जगत्। मूलं संसारदुःखस्य देह एवात्मधीस्ततः त्यक्त्वैनां प्रविशेदंतर वहिर वहि वहिरव्याप्रत्येन्द्रियः वहिरव्याप्रत्येन्द्रियः मत्तश्च्युतेन्द्रियद्वारै पतितो विषयेष्वहं तान् प्रपद्याहमिति मां पुरा वेद न तत्त्वतः एवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषता एष योगः समासेन प्रदीपः परमात्मना यन्मया दृश्यते रूपं तन्न जानाति सर्वथा जानन्न दृश्यते रूपं ततः केन ब्रवीम्यहं यत्परैः प्रतिपाद्योऽहं यत्परान् प्रतिपादये उन्मत्तचेष्टितं तन्मे यदहं निर्विकल्पकः यदग्राह्यं न गृह्णाति गृहीतं नैव मुञ्चति जानाति सर्वथा सर्वं तत्स्वसंवेद्य मस्मयम्।